अथ सप्तमोऽध्यायः ध्यानम् ॐ ध्यायेयं रत्नपीठे शुककलपठितं शृण्वन्तीं श्यामलाङ्गीं नस्ते कान्द्रीं सरोजे शशिशकलधरां वल्लकीं वादयन्तीं कौवाराबद्धमालां नियमितवत्सचोलिकां रक्तवस्त्रां मातङ्गीं शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासिबालाम् ॐ ऋषिरुवाच आज्ञप्स्ताप्ते ततो दैत्या चण्डमुण्डपुरोगमः चतुरङ्गबलोपेता ययूरभ्युततायुधः ददशुस्ते ततो देवीम् ईषद्वासां व्यवस्थिताम् सिंहस्योपरि शैलेन्द्र शृङ्गे महति काञ्चने ते दृष्ट्वा तां समादातुम् उद्यमं चक्रुरुद्यतः आकृष्ट चापासिधरः तथान्येतत्समीपगः तत कोपं चकारोच्चै अम्बिका तानरीन् प्रति कोपेन चास्यावदनम् मसीवर्णमभूत्तदा भ्रुकुटीकुटिला तस्या ललाटफलकादृतं कालीकरालवदना विनिष्क्रान्तासि पाशिनी विचित्रखट्वाङ्गधरा नरमालाविभूषण द्विपी चर्मपरिधान शुष्कमासाति भैरवा अतिविस्तारवदना जिह्वाललन भीषण निमग्ना रक्तनयना नादापूरितदिङ्मुखा सा वेगेनाभिपतिता धातयन्ती महासुरान् सैन्ये तत्र सुरारीणाम् अभक्षयत तद्बलं पाष्णीग्राहाङ्कुशग्राही योदघण्टा समन्वितान् समादायैकहस्तेन मुखे चिक्षेपवारणान् तथैव योधं तुरगै रथं सारथिना सह निक्षिप्य वक्त्रे दशनैश्च यतन्ति भैरवम् एकं जग्राहकेशेषु ग्रीवायामथ चापरं पादेनाक्रम्य चैवान्य मुरसान्यपोथयत् तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरै मुखेन जग्राहरुषा दशनैर्मथितान्यपि बलिनां तद्बलं सर्वम् असुराणां दुरात्मनां ममर्दा भक्षयञ्चान्यान् अन्यांश्चाताडयत्तथा असिना निहता केचित् खट्वाङ्गताडितः जग्मुर्विना समसुरा दन्ताग्राभीहतास्तथा क्षणेन तद्बलं सर्वम् असुराणां निपातितं दृष्ट्वा चण्डो विदुद्राव तां कालीमतिभीषणां शरवर्षै महाभीमै भीमाक्षीं तां महासुरः छादयामासचक्रैश्च मुण्डक्षिप्तैः सहस्रशः तानि चक्राणनेकानि विषमानानि तन्मुखं बभूर्यथार्कबिम्बानि सुबहूनि धनोदरं ततो जहासातिरुषा भीमं भैरवनादिनि कालीकरालवक्त्रान्त दुर्दशदशनोज्ज्वला उत्थाय च महासिंहं देवी चण्डमधावत गृहीत्वा चास्य केशेषु शिरस्तेनासिनाञ्छिनत् अथ मुण्डोऽव्यधावत्तां दृष्ट्वा चण्डं निपातितं तमप्यपातयद्भूमौ सा खङ्गाभियतं रुषा हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहावीर्यं दिशो वेजे भयातुरं शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहास Mishramabhetya Chandikam Mayatavatrau Paratau Chandamundau Mahapashu Yuddha Yagye Swayam Shumbham Nishumbham Chahanishyasi Rushirvacha Thavanitau Tatau Drishtva Chandamundau Mahasurau Uvacha Kalim Kalyani Lalitam Chandikavacha Yasma Chandam Chamundam Cha Grahitva Tamupagata Chamundeti Tato Loke Khyata Devi Bhavishyasi Iti Om Iti Shri Markandeya Purane Savarnike Manvantare Devi Mahatme Saptama Iti Jagadambar Panamas